अथाष्टमः सर्गः। स तस्य मध्ये भवनस्य संस्थितो महद्विमानम् मणिरत्र चित्रितम् प्रतप्तजाम्बूनदजालकृत्रिमम् ददर्श धीमान् पवनात्मजः कपिः। तदप्रमेयप्रतिकारकृत्रिमम् कृतम् स्वयम् साध्विति विश्वकर्मणा। दिवङ्गते वायुपथे प्रतिष्ठितम् व्यराजतादित्यपथस्य लक्ष्मतत्। न तत्र किञ्चिन्न कृतम् प्रयत्नतो न तत्र किञ्चिन्न महार्हरत्नवत्। न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत्। तपः समाधानपराक्रमार्जितम् मनः समाधानविचारचारिणम्। अनेकसंस्थानविशेषनिर्मितम् ततस्ततस्तुल्यविशेषनिर्मितम्। मनः समाधाय तु शीघ्रगामिनम् दुरासदम् मारुततुल्यगामिनम्। महात्मनाम् पुण्यकृताम् महर्धिनाम् यशस्विनामग्र्यमुदामिवालयम्। विशेषमालम्ब्य विशेषसंस्थितम् विचित्रकूटम् बहुकूटमण्डितम्। मनोभिरामम् शरदिन्दुनिर्मलम् विचित्रकूटम् शिखरम् गिरेर्यथा। वहन्ति यत्कुण्डलशोभिताननाम महाशनाव्योमचरानिशाचराः। विवृत्तविध्वस्तविशालोचना महाजवाभूतगणाः सहस्रशः। वसन्तपुष्पोत्करचारुदर्शनम् वसन्तमासादपि चारुदर्शनम्। सपुष्पकम् तत्र विमानमुत्तमम् ददर्श तद्वानरवीरसत्तमः। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः।